अर्हन्तु भगवन्त इन्द्र महितः सिद्धाश्च सिद्धेश्वरा आचार्या जिनशासनोन्नतिकरः पूज्या उपाध्यायकः श्रीसिद्धान्तसुपाठकामुनिवरा रत्नत्रयाराधकः पञ्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु ते मङ्गलम् श्रीमन्नम्रसुरासुरेन्द्रमुकुट प्रत्योतरत्नप्रभा भास्वत्पादनखेन्दवः प्रवचनां बोधेन्दवः स्थायिनः ये सर्वे जिनसिद्धसूर्यनुगतास्ते पाठकाः साधवः स्तुत्या योगिजनैश्च पञ्चगुरवः कुर्वन्तु ते मङ्गलम् दर्शनबोधवृत्तममलं रत्नत्रयं पावनं मुक्तिश्रीनगराधिनाथजिनपत् युक्तोपवर्गप्रदः धर्मः सुक्तिसुधा च चैत्य चैत्यमखिलं चैत्यालयः श्रयालयः प्रोक्तं च त्रिविधं चतुर्विधममि कुर्वन्तु ते मङ्गलम् नाभेयादिजिनाधिपास्त्रिभुवन ख्याताश्चतुर्विंशतिः श्रीमन्तो भरतेश्वरप्रभृतयो ये चक्रिणो द्वादश ये विष्णु प्रतिविष्णुलाङ्गलधरः सप्तोत्तराविंशतिः त्रैकाल्ये प्रथितास्त्रिषष्टिपुरुषः कुर्वन्तु ते मङ्गलम् ये सर्वौषधिरुद्धयः सुतपसो वृद्धिङ्गताः पञ्चये ये चाष्टाङ्गमहानिमित् कुशला येष्टौ विधाश्चारिणः पञ्चज्ञानधरास्त्रयोऽपि बलिनो ये बुद्धिरुवुद्धेश्वरः सप्तैते सकलार्चिता गणभृतः कुर्वन्तु ते मङ्गलम् ज्योतिर्व्यन्तर्भावनामरगृहे मेरौ कुलात्रौ स्थितः जम्बूशाल्मलिचैत्यशाखिषु तथा वक्षाररु प्यादृषु ईक्ष्वाकारगिरौ च कुण्डलनगे द्वीपे च नन्दीश्वरे शैले ये मनुजोत्तरे जिनगृहः कुर्वन्तु ते मङ्गलम्। कैलासे वृषभस्य निर्वृतिमही वीरस्य पावापुरे चम्पायां वसुपूज्य सच्चिनपते सम्मेदशैलेर्हता शेषाणामपि चोर्जयन्तशिखरे नेमीश्वरस्यार्हतो निर्वाणावनयः प्रसिद्धविभवः कुर्वन्तु ते मङ्गलम्। सर्पोहारलता भवत्यसिलता सत्पुष्पदा मायते सम्पद्धेतरसायनं विषमपि प्रीतिं विधत्ते रिपुः देवायान्ति वशं प्रसन्नमनसः किं वा बहु ब्रूमहे धर्मादेव न भोऽपि वर्षति न गहि कुर्वन्तु ते मङ्गलम्। यो गर्भावतरोत्सवो भगवतां जन्माभिषेकोत्सवो यो जातः परिनिष्क्रमेण विभवो यः केवलज्ञानभाक् यः कैवल्यपुरप्रवेशमहिमा सम्भाविनः स्वर्गिभिः कल्याणानि च तानि पञ्च सततम् कुर्वन्तु ते मङ्गलम्। इत्थं श्रीजिनमङ्गलाष्टकमिदं सौभाग्यसम्पत्प्रदम् कल्याणेषु महोत्सवेषु सुधियस् तीर्थङ्कराणामुषः ये शृण्वन्ति पठन्ति तैश्च सुजनैर्धर्मार्थकामान्विता लक्ष्मीराश्रयते व्यपायरहिता निर्वाणलक्ष्मीरपी।